अथ सहजानंद नामावली स्तोत्रम् अथ मंगलम् वंदेहं सहजानंदम् सर्वानंद प्रदं हरिं कृपाधृतावतारं तं स्वामी नारायणं हृदा अष्टाधिकं शतं नाम्नां तस्य सर्वावतारिणः वक्ष्यामि सर्वसिद्ध्यर्थं अक्षराधिपतेः शुभम् ॐ अस्य अष्टाधिकशत सहजानंद नामावली स्तोत्र मंत्रस्य प्रकटाक्षर ब्रह्म गुणातीतो गुरुः ऋषिः अनुष्टुप छंदः स्वामी नारायणो देवता अक्षर पुरुषोत्तम इति बीजं ब्रह्म द्वारक प्राकट्यः इति शक्तिः प्रस्थापित स्वसिद्धांत इति कीलकम् अस्य चतुर्वर्ग सिद्ध्यर्थे तथा च सर्वविध शुभ संकल्प सिद्ध्यर्थे जपे विनियोगः अथ ध्यानम् सदा चित्ताकर्षम् वदन कमलम् शांति सदनम् दयाराशिः साक्षाद् भरित करुणम् नेत्रयुगलम् प्रसन्नम् रम्यम् च रसित हसनम् दुःखहरणम् अहो ध्येयं दिव्यं सुखद सहजानंद सकलम् अथ सहजानंद नामावली स्वामी नारायणः साक्षाद् अक्षर पुरुषोत्तमः परमात्मा परब्रह्म भगवान् पुरुषोत्तमः अक्षरधाम वासोऽसि दिव्य सुंदर विग्रह साकारो द्विभुजो नादिः साकाराक्षर सेवितः दिव्यासनोपविष्टस्त्वं अनंत मुक्त पूजितः सर्वकरण शक्तोऽसि समर्थो भक्तिनंदनः दिव्य जन्मा महाराजो दिव्य कर्मा महामतिः नारायणो घनश्यामो नीलकंठस्तपः प्रियः अनासक्तस्तपस्वी त्वं अलिप्तो भक्तवत्सलः नैकमोक्षार्थयात्रोऽसि सर्वात्मा दिव्यताप्रदः स्वेच्छाधृतावतारोऽसि सर्वावतार कारणम् ईश्वरेशः स्वयं सिद्धो भक्त संकल्प पूरकः संतीर्ण सरयू वारिर हिमगिरिवन प्रियः पुलहाश्रमवासी च पवित्री कृतमानसः साक्षरः सहजानंदः सर्वानंद प्रदः प्रभुः प्रणीत दिव्य सत्संगः हरि कृष्णः सुखाश्रयः सर्वज्ञः सर्वकर्तासि सर्वभर्ता नियामकः सदा सर्वसमुत्कृष्टः शाश्वत शान्तिदायकः धर्मसुतः सदाचारी सदाचार प्रवर्तकः सधर्म भक्ति संगोप्ता दुराचार विदारकः दयालुः कोमलात्मासि परदुःखासहो मृदुः संत्यक्त सर्वथा हिंसो हिंसा वर्जित यागकृत सकल वेद वेद्योऽसि वेद सत्यार्थ बोधकः वेदज्ञो वेद सारश्च वैदिक धर्म रक्षकः दिव्य चेष्टा चरित्रश्च सर्वकारण कारणम् अंतर्यामी सदा दिव्यो ब्रह्माधीशः परात्परः दर्शिताक्षर भेदस्त्वं जीवेश भेददर्शकः माया नियामकोऽसि त्वं पंचतत्व प्रकाशकः सर्वकल्याणकारी च सर्वकर्म फलप्रदः सकल चेतनोपास्यः शुद्धोपासन बोधकः अक्षराधिपतिः शुद्धः शुद्ध भक्ति प्रवर्तकः स्वामी नारायणेत्याख्य दिव्य मंत्र प्रदायकः स्वप्रतिमा प्रतिष्ठाकृत स्वसंप्रदायकारकः प्रस्थापित स्वसिद्धांतो ब्रह्मज्ञान प्रकाशकः गुणातीतोक्त महात्म्यो क्षरात्मैक्य प्रबोधकः मूलाक्षर गुणातीत स्वरूप परिचायकः भक्ति लभ्यः कृपा साध्यो भक्त दोष निवारकः शास्त्री स्थापित सब्रह्म धातु मूर्तिरलौकिकः ब्रह्मद्वारक प्राकट्यः सम्यगक्षर संस्थितः समाधि कारकोसित्वं निखिल पापनाशकः सर्वतंत्र स्वतंत्रस्त्वं माइक गुणवर्जितः दिव्यानंत गुणोनंत नामा त्वं ध्यायसे मया ॐ नाम्नामष्टाधिकेनैवं शतेन कीर्तितो हरिः सर्वदुःख विनाशाय दिव्यानन्दाप्तये तथा इत्थं यः सहजानन्द नामावलिं पठेत् सदा नूनं तस्मिन् प्रसन्नः स्याद् अक्षरपुरुषोत्तमः इति अष्टाधिकशतसहजानन्द नामावलिस्तोत्रं सम्पूर्णम्।